चेतोदर्पणमार्जनम् भवमहादावाग्निनिर्वापणम् श्रेयःकैरवचन्द्रिका वितरणम् विद्यावधूजीवनम् आनन्दाम्बुधिवर्धनम् प्रतिपदम् पूर्णामृतास्वादनम् सर्वात्मस्नपनम् परं विजयते श्रीकृष्णसङ्कीर्तनम् नाम्नामकारि बहुधा निजसर्वशक्तिः तत्रार्पिता नियमितः स्मरणेन कालः एतादृशी तव कृपा भगवन् ममापि दुर्दैवमीदृशम् इहाजनिनानुरागः तृणादपि सुनीचेन तरोरपि सहिष्णुना अमानिना मानदेन कीर्तनीयः सदा हरिः नयनं गळदश्रुधारया वदनं गद्गदरुद्धया गिरा पुलकैर्निचितं वपुः कदा तव नामग्रहणे भविष्यति युगायितं निमेषेण चक्षुषा प्रावृषायितं शून्यायितं जगत्सर्वं गोविन्दविरहेण मे न धनं न जनं न सुन्दरीं कवितां वा जगदीशकामये मम जन्मनि जन्मनि ईश्वरे भवताद् भक्तिरहैतुकी त्वयि अयि नन्दतनूज किङ्करं पतितं मां विषमे भवाम्बुधौ कृपया तव पादपङ्कजस्थितधूलिसदृशं विचिन्तय आश्लिष्य वा पादरतां पिनष्टु माम् अदर्शनात् मर्महतां करोतु वा यथा तथा वा विदधातुलम्पटः मत्प्राणनाथस्तु स एव नापरः।